इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। संस्कृतवार्ता सम्प्रसारणस्य अयम् 50तमः वर्षः अस्ति इति मत्वा प्रधानमन्त्रिणा आकाशवाणी परिवारं प्रति मन की बात इति कार्यक्रमे शुभाशंसाः सन्ति सम्प्रेषिताः। प्रधानमन्त्रिणा संविधान संहितां प्रति राष्ट्रस्य लोकतान्त्रिक व्यवस्थां प्रति च जनविश्वासाय जनेभ्यः धन्यवादाः प्रदत्ताः। प्रधानमन्त्रिणा श्रीमोदिना अस्मिन् वर्षे पर्यावरण दिवसावसरे समारब्धस्य एक पेड़ मा के नाम इति कार्यक्रमस्य विषये उक्तं यत् स्वकीयया मात्रा सह उतोबा मातुः नाम्ना एकः पादपः रोपणीयः इति। जनरल उपेन्द्र द्विवेदी इत्यनेन अद्य दिल्ली नगरे सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्। अपि च भारतीय ऋतुविज्ञान विभागेन आगामिषु द्वित्रिषु दिवसेषु उत्तर भारतस्य कतिपय भागेषु दक्षिण पश्चिम वर्षर्तोः वरिवर्धनाय परिस्थितयः अनुकूलाः सन्तीति उक्तम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वकीये आकाशवाणीतः प्रसारिते मन की बात इति कार्यक्रमे देशवासिनः प्रति आभारभावान् व्यक्तीकृतवान्। तेन संविधान संहितां प्रति राष्ट्रस्य लोकतान्त्रिक व्यवस्थां प्रति च जनविश्वासाय सामान्य लोकसभा निर्वाचनानन्तरं प्रसारिते अस्मिन् एकादशोत्तर एकशततमे मन की बात इति धारावाहिके कार्यक्रमे अद्य प्रातः एकादशवादने राष्ट्रं सम्बोधयता उक्तं यत् अस्य वर्षस्य निर्वाचनं विश्वस्य सर्वातिबृहत्तमं निर्वाचनम् आसीदिति, यत्र 65 कोटिजनैः मतदानं कृतम्। श्रीमोदिना अस्मिन् वर्षे पर्यावरणदिवसावसरे समारब्धस्य एक पेड़ मा के नाम इति कार्यक्रमस्य विषयेऽपि चर्चा कृता। तेनोक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः इति। योगस्य विषये चर्चां कुर्वन् प्रधानमन्त्री उक्तवान् यत् आसंसारं दशमः योगदिवसः सोत्साहेन परिपालितः। तेनोक्तं यत् योगदिवसस्य आयोजनं यथायथम् अग्रे वर्धते, तथैव नूतन कीर्तिमदपि संरचयदस्ति। प्रधानमन्त्रिणा एतदपि उक्तं यत् अग्रिममासस्य अस्मिन्नेव कालांशे पेरिस ओलम्पिकाख्यः क्रीडाकुम्भः समारप्स्यति। तेनोक्तं यत् अस्मिन् क्रीडाकुम्भे कतिपयप्रकरणानि प्रथमतया दृष्टिपथं समायास्यन्ति। प्रधानमन्त्री उक्तवान् यत् आराष्ट्रम् इच्छति यत् क्रीडकाः पदकानि संगृह्य प्रत्यावर्तयेयुः रीति। प्रधानमन्त्री मोदी उक्तवान् यत् कुवैत प्रशासनेन स्वकीये आकाशवाणी कार्यक्रमे एकः कार्यक्रमः हिन्दीभाषायाः अपि समारब्धोऽस्ति। संस्कृतवार्ता सम्प्रसारणस्य अयम् 50तमः वर्षः अस्ति इति मत्वा प्रधानमन्त्रिणा आकाशवाणी परिवारं प्रत्यपि शुभाशंसाः सन्ति प्रेषिताः।
आज 30 जून को आकाशवाणी का संस्कृत बुलेटिन अपने प्रसारण के 50 साल पूरे कर रहा है। 50 वर्षों से लगातार इस बुलेटिन ने कितने ही लोगों को संस्कृत से जोड़े रखा है। मैं ऑल इंडिया रेडियो परिवार को बधाई देता हूँ। संस्कृत की प्राचीन भारतीय ज्ञान और विज्ञान की प्रगति में बड़ी भूमिका रही है।
ध्यातव्यमस्ति यत् आकाशवाण्याः संस्कृतवार्तावर्गस्य स्वर्णजयन्तिवर्षः अद्यारभते। संस्कृतवार्तायाः प्रथमप्रसारणम् 74th ख्रीष्टाब्दस्य जूनमासस्य 30th आकाशवाणीकेन्द्रात् समारब्धम्। पूर्वम् 5 निमेषात्मिका दैनिक संस्कृतवार्ता प्रातः 9 वादने सम्प्रसारिता भवति स्म। तदुपरान्ते च अस्याः प्रसारणकालः 5:17 अजायत्। 10निमेषात्मकञ्च द्वितीयप्रसारणं सन्ध्यायां 10:06 अभवत्। अनन्तरञ्च कालोऽयं परिवर्त्य 20:06 अभवत्। स्वस्यां विशिष्टशैल्याम् आकाशवाणीवर्गः विगतैकोनपञ्चाशत्वर्षेभ्यः भारतस्य नागरिकान्तं यावत् संस्कृतभाषायां संस्कृतवार्ताः प्रापयन्नस्ति। प्रधानमन्त्रिणा मन की बात इति कार्यक्रमे अग्रे उक्तं यत् जून मासस्य त्रिंशत् दिनांकः इतोपि एकेन कारणेनापि विशिष्टः अस्ति, यतोहि दिवसोऽयं हल दिवस रूपेणापि परिपाल्यते। तेनोक्तं दिवसोऽयं झारखण्डस्य वीरयोः सिद्धू कान्हू चेत्येतयोः साहस पराक्रमेण सम्बद्धोऽस्ति, याभ्यां ब्रिटिश अत्याचाराणां विरोधः विहितः आसीत्। प्रधानमन्त्रिणा मन की बात इति कार्यक्रम माध्यमेन जनैस्सह संयोजने साफल्याय प्रसन्नता अस्ति प्रकटिता। तेनोक्तं यत् मन की बात इति कार्यक्रमे भारतस्य समृद्ध संस्कृति विषये, इतिहास विषये, विकसित भारतस्य विनिर्माणे च परिचर्चा सातत्यं प्रवहिष्यतीति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयं आकाशवाण्याः अन्तर्जाल पटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी पक्षतः संस्कृत वार्तायाः 50तम वर्ष पूर्तौ एकः सन्देशः।
आकाशवाण्याः संस्कृत वार्ता प्रसारणस्य स्वर्ण जयन्ती वार्षिकोत्सवः ऐषमः जून मासे ऊनत्रिंशत्तमे दिनांके सम्पूर्तिमेति। अस्मिन् ऐतिहासिके शुभावसरे अहं बलदेवानन्द सागरः सर्वेषां संस्कृत प्रेमिणां हृदयेन अभिनन्दनं करोमि। आधुनिक संस्कृत पत्रकारितायाः प्रगतेः प्रचारस्य च शुभकामनाः प्रकटयामि। अस्य प्रसारणस्य प्रारम्भिक प्रसारकेषु अन्यतमः इति मम सौभाग्यम्।
जनरल उपेन्द्र द्विवेदी इत्यनेन अद्य दिल्ली नगरे सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम्। जनरल मनोज पाण्डेयः चतुरधिक दशकेभ्यः विशिष्ट सेवां प्रदाय अद्य सेवानिवृत्तः अभवत्। स्वकीये सुदीर्घकाले सः विविध पदेषु सेवाम् अयच्छत्। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अद्य कतरदेशस्य यात्रायां गच्छति। विदेशमन्त्रालयेन प्रोक्तं यत् एकदिवसीय यात्रावधौ डॉ जयशंकर कतरदेशस्य प्रधानमन्त्रिणा विदेशमन्त्रिणा च शेख मोहम्मद बिन अब्दुल रहमान बिन जसीम अल सानी इत्यनेन सह मेलनं करिष्यति। डॉक्टर जयशंकर द्वयोः देशयोः मध्ये राजनीतिकं व्यापारिक विनिवेश ऊर्जा सुरक्षा सांस्कृतिक परस्पर हिताय विषयेषु च क्षेत्रीय अन्ताराष्ट्रिय च विषयैस्सह द्विपक्षीय सम्बन्धानां समीक्षापि करिष्यति। मन्त्रालयेन प्रोक्तं यत् भारत कतर देशयोः मध्ये ऐतिहासिक मैत्रीपूर्णश्च सम्बन्धः वर्तते। भारतीय ऋतुविज्ञान विभागेन उक्तं यत् आगामिषु द्वित्रिषु दिवसेषु पश्चिम राजस्थान हरियाणा चण्डीगढ़ पंजाबस्य कतिपय भागेषु पश्चिमोत्तर प्रदेश हिमाचल प्रदेश जम्मूः अवशिष्ट भागेषु च दक्षिण पश्चिम वर्षर्तोः वरिवर्धनाय परिस्थितयः अनुकूलाः सन्तीति। विभागेनोक्तं यत् उत्तराखण्ड हिमाचल प्रदेश पंजाब हरियाणा चण्डीगढ़ उत्तर प्रदेश पूर्वी राजस्थान मध्यप्रदेशे च त्रिचतुर्दिवसेषु उत्कट वर्षायाः अस्ति संभावना। अन्ते क्रीडावार्तायां महिला क्रिकेट स्पर्धायां भारतीय चक्रीय कन्दुकक्षेपिकया स्नेहा राणा इत्यनया एम ए चिदम्बरम क्रिकेट क्रीडांगणे एकाक्यां निकष क्रिकेट स्पर्धायां तृतीये दिवसे दक्षिण अफ्रीकां विरुध्य अष्ट क्रीडकान् सम्पात्य कीर्तिमत् विरचितम्। अवशिष्टे च द्वे क्रीडिके दीप्ति शर्मा इत्यनया पातिते। सम्प्रति दक्षिण अफ्रीकायाः महिलादलं फॉलोऑन इति क्रीडां क्रीडति। अन्ते मुख्यवार्ताः पुनरेकवारम्। संस्कृतवार्ता सम्प्रसारणस्य अयं 50तमः वर्षः अस्ति इति मत्वा प्रधानमन्त्रिणा आकाशवाणी परिवारं प्रति मन की बात इति कार्यक्रमे शुभाशंसाः सन्ति सम्प्रेषिताः। प्रधानमन्त्रिणा संविधान संहितां प्रति लोकतांत्रिक व्यवस्थां प्रति च राष्ट्रस्य जनविश्वासाय जनेभ्यः धन्यवादाः प्रदत्ताः। प्रधानमन्त्रिणा श्रीमोदिना अस्मिन् वर्षे पर्यावरण दिवसावसरे समारब्धस्य एक पेड़ मा के नाम इति कार्यक्रमस्य विषये उक्तं यत् स्वकीयया मात्रा सह उतो वा मातुः नाम्ना एकः पादपः रोपणीयः इति। जनरल उपेन्द्र द्विवेदी इत्यनेन अद्य दिल्लीनगरे सेनाध्यक्षरूपेण कार्यभारं स्वीकृतम् इति वार्ताः।